एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली उत्पादनम् वृत्तिपार्जनम् च वर्धयितुम् विकासस्य आवश्यकतायाः प्राथमिकतायाश्च आधारेण आगामिनः आर्थिक वर्षस्य आयव्ययकम् निर्मातुम् च निर्दिशति। सिम्मप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये आगामिनः आर्थिक वर्षस्य आयव्ययक योजनायाः प्राथमिकतायाश्च निर्धारण सम्बद्धे पूर्वेद्यो विहिते विमर्शने प्रधानमन्त्री ओली उत्पादनम् उत्पादकत्वम् च वर्धयितुम् सबल योजनया सहितम् आगामिनः आर्थिक वर्षस्य आयव्ययकम् आनेयम् इति अभासत। तदवसरे शान्ति सुरक्षायाः संस्थापनत्वेन भ्रष्टाचारस्य उन्मूलनत्वेन जनतायै सहजतया सेवायाः प्रदानत्वेन च आगामी आयव्ययकम् निर्मातुम् प्रधानमन्त्री ओली निरदिशत। तदवधौ उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेलः स्रोतसाम् सुनिश्चितताम् विना अनेकासाम् योजनानाम् कृते स्वीकृतस्य विकास वित्तस्य व्ययाभावेऽपि पुनर्याचनायाः स्थितेः सुधारम् विधाय विधिम् मानदण्डम् च आधृत्य आयव्ययकस्य निर्माणार्थम् आत्मना प्रयासो विधीयते इति असूचयत। अर्थमन्त्रालयस्य अनुसारेण वर्तमानार्थिक वर्षस्य राजस्व संकलनम् प्रतिशतम् पञ्चपञ्चाशता, समग्र व्ययः प्रतिशतम् द्वापञ्चाशता, विकास व्ययश्च प्रतिशतम् अष्टविंशत्या च सम्भूतानि सन्तीति अज्ञापयत्। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः निगदति संघीयतायाः मर्मणः अनुरूपम् स्रोतसाम् व्यवस्थापनस्य सीमा प्राथमिकताम् च निश्चित्य अधिकाधिक प्रतिफल प्राप्तेः आयव्ययकस्य निर्माणार्थम् मन्त्रालयः प्रतिबद्धोऽस्ति। राष्ट्रिय सभान्तर्गतायाः विकासार्थिक विषय सुशासन समितेः ह्यस्तनोपवेशे अर्थमन्त्री पौडेलः आयव्ययक निर्माणस्य क्रमे वित्त क्रियान्वयनाय स्रोतसाम् अनुमाने प्रयोगे वित्त व्यवस्थापने च सर्वकारेण ध्यानम् प्रदीयते इति प्रावोचत। असौ अगदत् वर्तमानार्थिक वर्षस्य आयव्ययके स्रोतसाम् अनुमानम् व्ययस्य व्यवस्थापनम् प्रभावकारिताम् च विचार्यैव आयव्ययकम् प्रस्तुतमित्यतः आयव्ययकस्य क्रियान्वयनाय समस्या वर्तते। अर्थमन्त्री पौडेलः आगामिनि वर्षद्वये सर्वान् सूचकांकान् प्रपूर्य देशम् कृष्णसूचितः कलंकसूचितः वैनिष्कासयितुम् सर्वकारेण कार्यम् विधीयमानम् अस्ति इति अगदत्। प्रधानमन्त्री केपी शर्मा ओली कथयति सर्वकारस्य नयक्षेत्रस्य च सहकारेण राष्ट्रियोपलब्धयः अधिगन्तव्याः। नेपाल उद्योग वाणिज्य महासंघस्य एकोनषष्टितम वार्षिक साधारण सभायाः उद्घाटन सत्रम् ह्य सम्बोधयन् प्रधानमन्त्री ओली देशस्य विकासाय नैयक्षेत्रम् सक्रियेण आत्मविश्वासपूर्वकञ्च प्रवर्तितम् अस्तित्यतः सर्वकारः नैयक्षेत्राय सहयोक्तुम् तत्परोऽस्तीति अगदत। नेपाले सर्वकारस्य नैजक्षेत्रस्य च सहकार्यम् निदर्शनस्य रूपेण अग्रे वर्धमानमस्तीति भाषमाणः प्रधानमन्त्री ओली सर्वकारेण नैजक्षेत्रस्य सहजीकरणत्वेन प्रवर्धनत्वेन संरक्षणत्वेन च कार्याणि अग्रे वर्धितानि सन्तीति उदैरयत। कार्यक्रमे परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा वैदेशिक निवेशनकर्तारः नेपाले निवेशम् कर्तुम् इच्छुकाः सन्तीत्यतः अधिकाधिक वैदेशिक निवेशनम् प्रवेशयितुम् सर्वकारेण नैजक्षेत्रेण च मिलित्वा निवेशनस्य उचित वातावरणस्य निर्माणाय बलम् दत्तवती। तदवसरे उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी निवेशनस्य वातावरणम् अतिरिक्तम् अनुकूलम् विधातुम् सर्वकारेण नीतिगत सुधाराय निरन्तरता प्रदत्तास्तीति उदैरयत्। पश्चात्तन समये सामाजिक सञ्जालानाम् माध्यमेन कतिपयानाम् कोषागार प्रयोक्तृणाम् अनलाइन प्रविधिम् प्रयुज्य वञ्चनस्य क्रमः वर्धितोऽस्तीत्यतः सावधानताम् अवलम्बितुम् नेपाल प्रहरिणः साञ्जालिकापराध नियन्त्रण निकायेन सर्वे अनुरुद्धाः वर्तन्ते। निकायेन ह्य सूचनाम् प्रकाश्य सामाजिक सञ्जालेषु सन्देशेषु च प्रेषितम् सूचनाम् दृष्ट्वा स्वस्य विवरणम् सार्वजनिक कर्तुम् अज्ञात सामग्री स्वस्य चलभाषादिषु उपकरणेषु न प्रवेशयितुम् च सर्वे अनुरुद्धाः वर्तन्ते। पश्चातन समय सामाजिक सञ्जालानां माध्यमेन वित्त प्रदानस्य अंशभागितापणस्य प्रशिक्षणस्य प्रलोभनं प्रदर्श्य जनानां वञ्चनस्य क्रमस्य वर्धनस्य प्राप्तेः अनन्तरं प्रहरिणा सर्वे सावधानी कृताः सन्ति इति प्रहरीनिकायस्य प्रहरीपरीक्षकः दीपकराज अवस्थी असूचयत। नेपाल बार एसोसिएशन संघस्य अध्यक्षपदे वरिष्ठाधिवक्ता प्राध्यापक डाक्टर विजय प्रसाद मिश्र निर्वाचितो वर्तते। यह सार्वजनिक कृतस्य मत परिणामस्य अनुसारेण मिश्रेण पञ्च सहस्राणि द्वापञ्चाशत् मतानि प्राप्तानि सन्ति। मिश्रस्य प्रतिद्वन्दिना अध्यक्षस्य अपर प्रत्याशिना वरिष्ठाधिवक्त्रा रमण कुमार श्रेष्ठेण सहस्रद्वयं षड्शतम् एकविंशत् तीस च मतानि प्राप्तानि सन्ति। नूतन नेतृत्वस्य कृते वृहद लोकतान्त्रिक प्रगतिशील वृत्तिगत राष्ट्रवादी समावेशी विधि व्यवसायी समूहानां पक्षतः वरिष्ठाधिवक्ता प्राध्यापक डाक्टर मिश्र व्यावसायिक विधि व्यवसायीनां समूहानां पक्षतः वरिष्ठाधिवक्ता श्रेष्ठश्च प्रतिस्पर्धायाम् आस्ताम्। गण्डकी लुम्बिनी प्रदेशयोः योजके तनहु जनपदस्य घिरिङ ग्रामपालिकायाः प्रथमवडा क्षेत्रे कृष्णा गण्डकी नद्याः उपरि निर्मिते वज्रसेतौ यातायात साधनानां सञ्चालनं प्रारब्धमस्ति। सेतोः निर्माणेन गण्डक प्रदेशस्य तनहु जनपदस्य घिरिङ ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य पुट्टारस्थानं लुम्बिनी प्रदेशस्य पाल्पा जनपदस्य रामपुर नगरपालिकायाः प्रथमवडा क्षेत्रं च इति सेतु निर्माणोपभोक्ति समितेः अध्यक्ष विष्णुभक्त सिग्देलः असूचयत। गुल्मी जनपदे दुरापन्नेन झञ्झावातेन षट्त्रिंशत्तो लक्षेभ्यः अपि अधिकानां रूप्यकाणां भौतिक क्षति सम्भूतास्ति। परह्यः रात्रौ दुरापन्नेन झञ्झावातेन जनपदस्य विभिन्नेषु गृहेषु विद्यालयेषु अतिथिसदनेषु च समग्रता षट्त्रिंशत्तो दिकलक्षाणां रूप्यकाणां क्षतिः सम्भूतास्ति इति प्रेरणा ज्ञापितं वर्तते। झञ्झावातेन कालीगण्डकी ग्रामपालिकायाः त्रिषु, मालिका ग्रामपालिकायाः एकादशसु, धुर्कड ग्रामपालिकायाः नवसु, रुरु ग्रामपालिकायाः एकस्मिन्, रेसुङ्गा नगरपालिकायाः द्वयश्च गृहेषु क्षतिः प्रापितास्ति इति गुल्मी जनपद प्रहरी कार्यालयस्य प्रमुख राजन भुजेलः अज्ञापयत्। तथैव डोटी जनपदे वज्रपातेन एको जनः मृतः, सप्त जनाः आताश्च वर्तन्ते। परह्य रात्रौ जनपदस्य सायला ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य दल्लेखवर्तिनः लहरी नागरी इत्यस्य गृहे वज्रपातेन तदीया पत्नी आसन्न त्रयस्त्रिंशद् वर्षीया कमला नागरी घटनास्थले एव मृतास्ति। बारा जनपदस्य बारागढ़ी ग्रामपालिकायाः चतुर्थवडा क्षेत्रे विश्वकर्मा कुक्कुट पालन केन्द्रे वज्रपातेन भीषणाग्निदाहस्य कारणात् लक्षशो रूप्यकाणां क्षति सम्भूतास्ति। कुक्कुट पालन केन्द्रस्य संचालकस्य हरेन्द्र विश्वकर्मणः अनुसारेण वज्रपातेन विद्युत तन्त्र्याः अग्निदाहेन केन्द्रस्य संरचनायां सामग्रीषु च क्षतिः सम्भूतास्ति। अग्निदाहेन सहस्रद्वयादपि अधिकाः कुक्कुटाः मृताः वर्तन्ते। राष्ट्रपति रामचन्द्र पौडेलः निगदति नेपाली सेना न केवलं नेपालस्य अपि तु अन्तर्राष्ट्रिय स्तरेऽपि प्रतिनिधित्वकारी राष्ट्रस्य विभूषणं शान्ते मानवतायश्च प्रतीकं वर्तते। लिबियादेशं गन्तुं तत्परं नयाँ भैरवी दल सैन्य समूहम् उद्देश्य संचालितस्य सैन्य प्रशिक्षणस्य समापन समारोहं पूर्वेद्यो काभ्रे जनपदस्य पाँचखाल स्थाने सम्बोधयन् राष्ट्रपति पौडेलः एवम् अगदत्।